एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। निर्वाचनायोगस्य केन्द्रीयाचार समितानुगमन समितौ साम्प्रतम् यावत् 66 याचिका निवेदनानि प्राप्तानि सन्ति। तत्र सम्बद्धानि सम्बद्धेभ्य राजनीतिक दलेभ्य प्रत्याशिभ्यश्च आयोगेन स्पष्टीकरणं पृष्टमस्ति। तेषु द्वात्रिंशत् संख्यातानां स्पष्टीकरणानां प्रत्युत्तरं प्राप्तमस्ति इति निर्वाचन आयोगेन ज्ञापितं वर्तते। आयोगेन निर्वाचन आचार संहितायाः उल्लंघनस्यारोपे राजनीतिक दलेभ्यः प्रत्याशिभ्यः सर्वकारीय संस्थाभ्यः सर्वकारीयेतर संस्थाभ्यः संचार माध्यमेभ्यः पत्रकारेभ्यश्च स्पष्टीकरणं स्पृष्टमस्ति। निर्वाचन आचार संहितायाः सम्यक्तया परिपालनेन तदुल्लंघन सम्बद्धानां घटनानां नैयून्याय आयोगेन प्राप्तेषु याचिका निवेदनेषु आवश्यकानुसन्धानस्य दण्डनस्य च प्रक्रिया अग्रेसारिता अस्ति। पञ्जीभूतानि संचार माध्यमानि तत्र आवद्धान पत्रकाराश्च प्रेस काउन्सिल इति संस्थायाः माध्यमेन स्पष्टीकरण प्रभृतीनां कार्याणां कृते पत्रं प्रेषितमस्ति इति आयोगस्य विद्यधिकृतः मोहन राज जोशी असूचयत्। आचार संहितायाः प्रभावपूर्णस्य क्रियान्वयनस्य कृते केन्द्रीयाचार संहितानुगमन समितिः जनपदाचार संहितानुगमन समितिः जनपदाचार संहितानुगमनाधिकृताः सम्बद्ध निर्वाचन कार्यालयाश्च क्रियाशीलाः वर्तन्ते इति असौ असूचयत्। कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी कोषागार प्रणाल्याः माध्यमेन एव निर्वाचनस्य व्ययः पारदर्शी भवति इति उक्तवान् वर्तते। आयोगे ह्य कोषागारस्य प्रतिनिधिभिस्सह सम्भूते विमर्शने कार्यवाहक प्रमुख निर्वाचन आयुक्तः भण्डारी रूप्यकम् अगृहीत्वैव निर्वाचने गमनस्य व्यवस्था विहिता अस्तीत्यतः राजनीतिक दलै प्रत्याशिभिश्च कोषागारे निर्वाचन व्ययाय पृथक् कोषागारीयाभिलेख संचालनस्य व्यवस्था विहिता अस्ति। भूगोलानुसारेण प्रत्याशिनः 25 लक्षतः आरभ्य 33 लक्षरूप्यकाणि यावत् व्ययं कर्तुं शक्नुवन्ति। आयोगेन अस्मिन् वर्षे प्रत्याशिभिः दलस्य निर्वाचन व्ययो अनिवार्यतया कोषागार माध्यमेन कर्तुं व्यवस्था विहिता अस्ति। नेपाल जापान देशयोः पर्यटन कौटनीतिकं सुदृढं विधातुं नेपाल पर्यटन समितेः जापान देशस्य वाकायामा प्रिफेक्चर इति संस्थायाः मध्ये पर्यटन सहकारी सम्बद्धा संविधा सम्भूता अस्ति। नेपाल पर्यटन समितौ ह्य आयोजिते कार्यक्रमे द्वयोः पक्षयोः मध्ये संयुक्त प्रवर्धनस्य ज्ञानादान प्रदान सबल पर्यटन विकासस्य क्षेत्रेष् सहकार्याय प्रतिबद्धता व्यक्ता अस्ति। संविधापत्रे नेपाल पर्यटन समितेः प्रमुख कार्यकारीधिकृतः दीपकराज जोशी वाकायामा प्रिफेक्चर इति संस्थायाः अधिशासकः इचुमी मियाजाकी इति च हस्ताक्षर विहितवन्तौ। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री अनिल कुमार सिन्हा नेपाल जापान देशयोः कौटनीतिक सम्बन्ध स्थापनायाः 70वें वर्षस्य अवसरे सम्भूतं कार्यक्रमं सबलस्य उत्तरदायित्वपूर्णस्य पर्यटन प्रवर्धनस्य च कृते महत्वपूर्णं भविष्यति इति अगदत्। वाकायामा प्रिफेक्चर इति संस्थायाः अधिशासकः इजुमी मियाजाकी ऐतिहासिक रूपेण सांस्कृतिक रूपेण च समृद्धेन नेपालेन सह सम्भूतस्य सहकार्यस्य कृते हर्षं प्राकटयत्। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री श्रद्धा श्रेष्ठ प्रतिनिधि सभायाः निर्वाचने महिलानां ज्येष्ठ नागरिकाणाम् अशक्तानां च मतदातृणां कृते सहजतापूर्वकं मतदानस्य वातावरणं निर्मातुम् आवश्यकम् अस्ति इति उक्तवती वर्तते। ह्य काष्ठमण्डपे आयोजिते समाज रूपान्तरणाय नागरिक समाजस्य सुदृढीकरणमिति कार्यक्रमे मन्त्री श्रेष्ठ निर्वाचनं महिलानाम् अशक्तानां कृते सहजं विधातुं बलं दत्तवती। निर्वाचनस्य सुरक्षा संवेदनशीलतां विचार्य नेपाली सेनया सुदूरपश्चिम प्रदेशस्य 7 जनपदानां कारागार सुरक्षायाः दायित्वं गृहीतमस्ति। कैलाली कञ्चनपुर जनपदयोः मुख्यालये विद्यमानै जनपद कारागारै सह सेनया बैतडी बाजुरा पर्वतीय जनपदौ विहाय अवशिष्टेषु 7 जनपदेषु विद्यमानानां कारागाराणां सुरक्षायाः दायित्वं गृहीतमस्ति इति नेपाली सेनया ज्ञापितं वर्तते। परराष्ट्र मन्त्री बालानन्द शर्मा बांगलादेशस्य नवनिर्वाचितस्य सर्वकारस्य शपथ ग्रहण समारोहे सहभागी भविष्यति। परराष्ट्र मन्त्रिणः भ्रमणेन नेपाल बंगलादेशयोः सम्बन्धस्य दृढतया सहैव पारस्परिक सम्बन्धोऽपि प्रगाढो भविष्यति इति परराष्ट्र मन्त्रालयेन विज्ञप्तेर्माध्यमेन ज्ञापितमस्ति। सार्वजनिक सेवा प्रसारण रेडियो नेपालेन समावेशी प्रसारण सामग्रीनाम उत्पादन प्रसारण सम्बद्ध दुई दिवसात्मक प्रशिक्षण कार्यक्रम प्रारब्धोस्ति। प्रशिक्षण कार्यक्रमे सिंह प्रसाद वर्तिनी रेडियो नेपाल कार्यरतानाम प्रसारकाणाम सम्पादकानाम संवाददातृणाम बागमती प्रदेशस्य जनपदानाम स्थानीय संवाददातृणाम च सहभागिता वर्तते। प्रशिक्षण कार्यक्रमे सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकारीध्यक्ष डाक्टर महेन्द्र विष्टः विभिन्नानां राष्ट्रभाषाणां स्वकीया मौलिकता विशेषता चास्तित्यतः एताः प्राथमिकतायां संस्थाप्य प्रसारण सामग्री प्रभावपूर्णः विधातुं बलं प्रादात्। मिथिलांचल सहितस्य तराई मधेशस्य सर्वाधिका विशाला दीर्घतरा च मिथिला मध्यमा परिक्रमा ह्यस्तन दिवसात् प्रारब्धास्ति। मिथिलायाः महाकुम्भरूपेण प्रचलिता मिथिला माध्यम परिक्रमा धनुषा जनपदस्य मिथिला बिहारी नगरपालिकायाः ठेरा कचुरी वर्तिनः मिथिला बिहारी मठेभ्य समारब्धास्ति। परिक्रमायां सहभागी तीर्थयात्रीभि नेपाल भारतयोः त्रयस्त्रिंशदुत्तरैकशत किलोमीटर मितयात्रा उपानहु विनैव भजन कीर्तनम कुर्वद्भि गम्यते। नेपाल पञ्चाङ्ग निर्णायक विकास समित्या पञ्चाङ्गस्य प्रकाशनात् वितरणात् च पूर्वम् अनिवार्य रूपेण समितितः स्वीकृत्यर्थम् आग्रहो विहितोऽस्ति। इति समाचारः।